सर्वेषां नमः. गतवर्गे वयं पञ्चमी विभक्ति इति विषयस्य अभ्यासं कृतवन्तः. तत्र किं पञ्चमीविभक्तेः प्रयोगः अपि पूर्वं परम् अपि भीतिः इति रक्षति भयम् इत्येतेषां प्रयोगे अपि पञ्चमीविभक्ति रूपं भवति इति अपि वयं दृष्टवन्तः. इदानीं तत्र किञ्चित् अन्यत् अभ्यासमपि कुर्मः इति आशा आसीत्. अत्र करपत्रम् अहं प्रेषितवान्, सर्वे प्राप्तवन्तः वा ईमेल् मध्ये? करपत्रम् आसीत्.
आम् महोदय, पञ्चमी.
अस्तु, हा, पञ्चमी विभक्ति इति विषये अस्तु. तदेव तत्र लघुकथा अस्ति, तद् एकवारं पठित्वा अत्र पुनः गीतासोपनम् आगत्य तत्र किमस्ति इति पश्यामः. अस्तु, बालचेतन महोदय, कथां तत्र करपत्रं प्राप्तवान् वा? अस्तु, सूर्यकुमारी भगिनी प्राप्तवती खलु? अस्तु अस्तु अस्तु, हा, अस्तु अस्तु. तर्हि गीतञ्जलि भगिनी आरम्भं करोति वा तत्र पञ्चमी भक्ति कथा?
आम् महोदय. शीर्षकः आश्रमः. एषः मुनिवरस्य आश्रमः. आश्रमस्य पार्श्वे एका लघु नदी प्रवहति. आश्रमस्य पार्श्वे एका लघु नदी प्रवहति. सा महानद्याः प्रभवति. नद्याः तीरे अस्ति आश्रमः. आश्रमे मुनिवरस्य शिष्याः अपि वसन्ति. ते प्रतिदिनं मुनिवरात् शास्त्राणि पठन्ति. ते अरण्यात् समिधः आनयन्ति. ते ग्रामेभ्यः भिक्षावस्तूनि आनयन्ति, पाककार्यं कुर्वन्ति. नदीतः जलम् आनीय वृक्षान् लताः च सिञ्चन्ति. वृक्षेभ्यः फलानि आनीय अतिथिसत्कारम् अपि ते कुर्वन्ति.
समीचीनं भगिनी, हा, अस्तु. अग्रे सूर्यकुमारी भगिनी.
आं महोदय. आश्रमपरिसरे हरिणाः, धेनवः इत्यादयः निवसन्ति. हिंस्रपशवः अपि निवसन्ति. परस्परं द्वेषः नास्ति आश्रमस्य परिसरे. अतः न बिडालात् विभेति मूषकः, न शुनकात् विभेति बिडालः, न जनेभ्यः बिभ्यति वानराः, न क्रूरमृगेभ्यः भीताः भवन्ति हरिणादयः.
भीताः भवन्ति हरिणादयः. समीचीनं भगिनि, हा, अस्तु. अग्रे बालचित्र महोदय.
మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు. దయచేసి లైన్ లో ఉండండి. ग्रामीणाः प्रतिदिनम् आश्रमम् आगच्छन्ति. ते मुनिवरात् उपदेशं शृण्वन्ति. धर्मात् विना मुक्तिः सुखं वा नास्ति इति मुनिवरः उपदिशति. सः जनान् पापेभ्यः रक्षति.
अहिंसा परमो धर्म अतः हिंसात् विरमन्तु इत्यपि उपदिशति सः। ग्रामीणाः महिलाः नदीतः जलं नेतुम् आश्रमसमीपम् आगच्छन्ति। ताः शिष्यान् पुत्रवत् पश्यन्ति, गृहात् फलानि क्षीरञ्च आनीय समर्पयन्ति।
समीचीनं महोदय, धन्यवादः। अस्तु, अत्र पङ्क्तिशः पश्यामः किं किम् अस्ति इति। आश्रमः इति विषयः तत्र तत्र इदानीं सूर्यकुमारी भगिनी तत्र प्रथमपरिच्छेद दृष्ट्वा किञ्चित् वदति वा?
महोदय, एषः आश्रमः मुनिवरस्य आश्रमः अस्ति।
मुनिवरस्य तत्र केवलं मुनिः आसीत् चेत् किं भवति? मुनिवरस्य इति विभक्ति का तत्र षष्ठी?
मुनिस्य
न मुनिः अस्ति चेत् कविः,
मुनिः
न गीतांजलि भगिनी सहायं करोति वा?
किं विभक्ति?
मुनिः पदस्य षष्ठी विभक्ति।
मुनेः
मुनेः आश्रमः कवेः इति। अस्तु, अग्रे सूर्यकुमारी भगिनी अग्रे।
आश्रमस्य पार्श्वे एक
पार्श्वे इत्युक्ते समीपे
समीपे
एका लघु नदी प्रवहति। तत्र एका अपि लघु नदी कीदृशसम्बन्धः तत्र विशेषभावः
स्त्रीलिङ्गे
अतः एका। समीचीनं भगिनि। प्रवहति, प्रवहति इत्युक्ते
सरति
सरति सरति
सा महानद्याः प्रभवति
इत्युक्ते
महानद्याः बहु एकव नद्याः
सा इत्युक्ते सा इत्युक्ते का अत्र
नदी
लघुनदी सा लघुनदी
महानद्याः
प्रभवति सा लघुनदी प्रभवति प्रभवति इत्युक्ते तस्य उदयति
महोदय तत् किं महोदय सा लघु नदी तर्हि सा महानद्याः प्रवहति इत्युक्ते
तत्र महानद्याः इति नद्याः महानद्याः इति विभक्ति का न महानद्याः इति विभक्ति का तत्र आश्रमस्य भवत्याः नाम किम् इति अस्ति भवती
भवत्याः
पञ्चमी वा षष्टि वा समीचीनम् अत्र किम् अस्ति शीर्षक विषयः कः अद्यतनविषयः सत्यं पञ्चमीविभक्ति इत्युक्ते तः नदीतः महानदीतः प्रभवति
फ्लोयिङ्ग् इन्टु ए बिग् रिवर्
बेङ्गळूरुतः अहम् आगच्छामि इति तादृश नदीतः महानदीतः एषा नदी प्रभवति महानदीतः एषा लघुनदी प्रभवति उदेति
किमर्थं प्रभवति महोदय
उदेति तस्य उदयं तत्र जन्म जननं तत्र भवति इति
नद्याः तीरे अस्ति आश्रमः.
इदानीं नद्याः इति विभक्ति का तत्र अत्र षष्टि. समीचीनं भगिनि, समीचीनं. महानद्याः तत्र पञ्चमी किन्तु अत्र षष्टि. समीचीनं. अग्रे
आश्रमे मुनिवरस्य शिष्याः अपि वसन्ति.
आश्रमे
सप्तमी एतत् एकवचनं, मुनिवरस्य षष्टि, शिष्याः बहुवचन शिशुः शिष्यः बहुवचन
शिशुः न शिष्यः अकारान्तपदं शिष्याः
बहुवचनं प्रथमविभक्ति
अपि वसन्ति. ते अपि वसन्ति. मुनिवरः वसति
मुनेः.
मुनिः वसति अपि शिष्यः अपि वसन्ति तत्रैव वसन्ति.
ते प्रतिदिनं मुनिवरात् शास्त्राणि पठन्ति.
शास्त्राणि पठन्ति. तत्र ते इत्युक्ते के?
शिष्याः.
ते शिष्याः. तत्र तत्र एकस्य वाक्य अनन्तरं वाक्यमस्ति, तस्य अनन्तरम् अन्यत् वाक्यमस्ति चेत् सम्बन्धः अस्ति खलु. तद् वयं वदामः अन्वयः. अन्वयः ते इति पदस्य अन्वयः कुत्र अस्ति इत्युक्ते, ते इति पदस्य अन्वयः शिष्याः इति पदे तत्र अस्ति. तस्य अन्वयः तत्र शिष्याः इति पदे अस्ति इत्युक्ते ते पदं किं सूचयति? शिष्याः इति सूचयति. आङ्ग्लभाषायां पठामः तदेव भवति खलु. अन्यासु भाषासु अपि तदेव अस्ति. रामः गच्छति, तदनन्तरं सः अस्ति चेत् ओ रामः इति सः. तादृश एव ते इत्युक्ते शिष्यः. समीचीनं भगिनि. ते प्रतिदिनं मुनिवरात्. मुनिवरात् इति विभक्ति का?
पञ्चमी
एकवचनं. शास्त्राणि पठन्ति
नपुंसक बहुवचनं. शास्त्राणि द्वितीयविभक्ति बहुवचनं.
समीचीनं भगिनि. अग्रे
पठन्ति ते अरण्यात्. ते शिष्याः अरण्यात् समिधः आनयन्ति.
समिधः
यज्ञसामग्री.
समीचीनं भगिनि. सत्यं. होमसामग्री. समीचीनं.
ते ग्रामेभ्यः भिक्षावस्तूनि आनयन्ति.
भिक्षावस्तूनि
आनयन्ति. शिष्याः ग्रामेभ्यः पञ्चमी बहुवचनं.
ग्रामं ग्रामं गत्वा एतस्मात् ग्रामात् एकम् अन्यत् ग्रामात् अन्यत् किमपि तादृश कृत्वा ग्रामेभ्यः
भिक्षावस्तूनि
आनयन्ति. अपि तदनन्तरं
पाककार्यं कुर्वन्ति.
कुर्वन्ति. तत्र क्रियापदम् अन्यत् क्रियापदं कोऽपि वदति वा? पाककार्यं कुर्वन्ति इति एकं क्रियापदं.
पचन्ति.
समीचीनं. ते शिष्याः पचन्ति. पाककार्यं कुर्वन्ति. समीचीनं.
नदीतः जलम् आनीय वृक्षान् लताः च सिञ्चन्ति.
तत्र
नदीतः एकवचनं पञ्चमी विभक्ति. जलम्
आनीय
जलं नपुंसकलिङ्गे एकवचनम्.
एकवचनं विभक्ति.
द्वितीयविभक्ति.
किमर्थं?
जलं स्वीक्रिय.
न जलम् इत्युक्ते तत्र किं?
शिष्याः
इति कर्तृपदम्. आनयन्ति अथवा आनीय इति अस्ति ल्यबन्तरूपं. तत्र किं भवति, तत्र जलं जलम् इति कर्मपदं भवति,
जलं कर्मपदम्,
अतः द्वितीया विभक्तिरूपं.
वृक्षान् लताः च सिञ्चन्ति.
सिञ्चन्ति, सिञ्चन्ति इत्युक्ते जलं जलं
जलं ददाति,
ददाति,
ददाति.
अस्तु, तत्र समीचीनं भगिनि. नदीतः इति स्थाने अन्यत् किं पदं वक्तुं शक्नुमः तत्र? नदीतः इति एकं रूपम् अस्ति पञ्चमी
विभक्ति.
न नद्यात् इति न, नद्याः,
नद्याः,
नद्याः वस्तुतः पञ्चमी विभक्ति. एतत् पञ्चमी विभक्त्यर्थे एतद् रूपम् अस्ति नदीतः
इति.
न न तावदेव, नदीतः इति एकं रूपम् अस्ति, तः इति तद् कुत्रापि वयं स्थापयितुं शक्नुमः. नदीतः, वचनतः, रूपतः, कुत्रापि तः इति स्थापयित्वा तत् भवति पञ्चमी विभक्त्यर्थे. अतः तद् बहु सुलभरूपम् अस्ति. पञ्चमीभक्तिरूपं यदि न जानीमः, केवलं तः इति स्थापयतु, पञ्चमीभक्तिः अर्थः भवति तत्र. अथवा जानीमश्चेत् नद्याः जलम् आनीय वृक्षान् लताः च सिञ्चन्ति. तत्र लताः इति विभक्ति का?
लता वृक्षान् लताः स्त्रीलिङ्ग
बहुवचनम् विभक्ति,
द्वितीय विभक्ति.
किमर्थम्?
किमर्थम्
किमर्थम् किमर्थम् वै
किमर्थम् नदी न वृक्षान् लताः.
नरेश महोदय वदति वा? नमस्कारः नरेश महोदय.
नमस्कारः महोदय. कर्मपदमस्ति.
कर्मपदमस्ति. सिञ्चन्ति इति क्रियापदमस्ति, तर्च्य कर्मपदमस्ति. लताः वृक्षान्, वृक्षाः सिञ्चन्ति, शिष्याः जलेन वृक्षान् सिञ्चन्ति, शिष्याः जलेन लताः सिञ्चन्ति.
प्रथमविभक्ति,
प्रथमविभक्ति शिष्याः, कर्तृपदम्
सिञ्चन्ति.
सिञ्चन्ति तत्र भवती वृक्षं पश्यतु अथवा भवती वृक्षं पश्यति. भवती कर्तृपदमस्ति, पश्यति क्रियापदमस्ति, किं पश्यति तद्
कर्मपदमस्ति.
किं सिञ्चन्ति, किं सिञ्चन्ति शिष्याः वृक्षान् सिञ्चन्ति. अन्यत् किं सिञ्चन्ति, शिष्याः लताः सिञ्चन्ति इति. अन्तिमवाक्यं भगिनि तावत्.
वृक्षेभ्यः फलानि आनीय अतिथिसत्कारम् अपि ते कुर्वन्ति. वृक्षाभ्यः बहुवचन पञ्चमी विभक्तिः
बहुवचनं.
फलानि
फलानि
आनीय
आनयन्ति. तदनन्तरम्
अतिथिसत्कारम्
अतिथिसत्कारम्
अपि ते शिष्याः कुर्वन्ति.
फलैः फलानि
फलानि फलानि द्वितीयविभक्ति बहुवचनम्.
समीचीनम्. अतिथिः अस्ति, किं कुर्वन्ति फलानि? तत्र कः वदति अतिथिः इति शब्दस्य? तत्र फलानि फलानि तत्र अत्र दत्तमस्ति अतिथिसत्कारं कुर्वन्ति इति. अतः फलानि ददति अथवा ददाति इति कुर्म. शिष्यः कोऽपि अस्ति, अतिथिः आगच्छति, फलं ददाति. तत्र अतिथि इति पदं स्थापयितुम् इच्छामः, तत्र अतिथिपदस्य विभक्ति का भवति? कस्मै ददाति?
షష్టి
తస్మై
కస్మై కస్మై
కస్మై అతి అతిథి అతి
తత్ర किमपि किमपि दातुम् इच्छामः चेत् विभक्ति कीदृशरूपतिः अतिथि इति पदस्य चतुर्थी विभक्ति एकवचनरूपं किम् अस्ति हरिः अस्ति किं वदामः हरिः अस्ति हरि नमः इति किं कुर्मः हरि
गुरवे
गुरवे नमः हरि अस्ति चेत्
हरेः
न न न
हराव
न न न
हरये
हरये
समीचीनं भगिनि अस्तु हा इदानीं तत्र इदानीं तत्र वदतु किं भवति
अतिथ्ये
अतिथये
हरये इति अतिथये
अतिथये
अतिथये ददाति
अपि
शिष्यः फलम् अतिथये ददाति अथवा बहुवचने अतिथिभ्यः ददाति इति अस्ति किन्तु इदानीं चतुर्थविभक्ति वयं न कृतवन्तः किन्तु किं कीदृशरूपम् इति किञ्चित्
बहुवचनं कर्मपदं क्रियापदं शिष्याः ददति
हा तत्र ददति इति ददाति इति किञ्चित् विशेषरूपम् अस्ति तत्र ददाति इति एकवचने दत्तः इति द्विवचने
ददति
हा ददाति दत्तः ददति इति तत्र गीतासोपने दत्तमस्ति पेज् 39 पश्यतु तत्र गीतासोपने ददाति दत्तः ददति नो चेत्
महोदय
विशेषक्रियापदम् अस्ति तत्र अष्टाध्यायी मध्ये अपि प्रायशः एतद् द्रष्टुं शक्नुमः अस्तु समीचीनम् अस्तु प्रथमपरिच्छेदः
महोदय महोदय यदा भवान्
पृष्टवान्
किं सिञ्चति किम् अत्र प्रथमविभक्ति अपि च द्वितीयविभक्ति समीचीनं सम्भवतः
तत्र कः अस्तु अस्तु भगिनि तत्र यदि तत्र अस्तु तत्र न न एकनिमिषं भगिनि अत्र अस्तु प्रथमतया किं पृच्छामः कः सिञ्चन्ति इति न जानीमः क्रियापदम् अस्ति सिञ्चन्ति
कः इत्युक्ते क्रियापदं कः
न कः इत्युक्ते कर्तृपदम्
सोरि कर्तृपदम् एक्स्क्यूस् मी कर्तृपदम् अस्ति
अतः तत्र ते इति अस्ति शिष्याः सिञ्चन्ति इदानीं शिष्याः सिञ्चन्ति शिष्याः किं सिञ्चन्ति
शिष्याः
वृक्षान् सिञ्चन्ति लता
किन्तु यदि शिष्याः न वदति केवल किं सिञ्चति वदति चेत्
तत्र सत्यं भगिनि किन्तु तत्तु सर्वत्र भवति सर्वेषु क्रियापदेषु तदेव स्थितिः सा एव स्थितिः खलु किं करोति इत्युक्ते किं करोति इत्युक्ते उत्तरं किं भवति कः करोति इति वा न खलु अतः किम् इति अस्ति चेत् प्रायशः वयं कर्मपदं तस्य चिन्तनम् इति साधारण व्यवहारः कः इति अस्ति चेत् अस्तु कर्तृपदस्य व्यवहारः इति खलु कः करोति न जानीमः महिला करोति वा पुरुषः करोति वा अथवा यानं करोति वा न जानीमः किन्तु प्रश्नः कः करोति तदनन्तरं किं करोति नो चेत् प्रश्नः अपि कः किं करोति इति भवति खलु
अस्तु, यदा भवान् पृष्टवान् तदनन्तरम् अहं
मनसि चिन्त्यते, समीचीन एव, किन्तु व्याकरणरूपेण तत्र प्रायशः न वक्तुं शक्नुमः तत् कर्तृपदस्य किम् अपेक्षितं, कर्तृपदम् अपेक्षितं वा कर्मपदं, किन्तु साधारणव्यवहारः एषः अस्ति यत् कः इति अस्ति चेत् कर्तृपदस्य अपेक्षणं, किम् इत्युक्ते कर्मपदस्य अपेक्षणम् इति.
अवगच्छामि महोदय, धन्यवादः.
सम्यक्, समीचीनं वा इदानीं?
धन्यवादः
भगिनि. हा अस्तु, हा अस्तु, अग्रे
महोदय.
शीतल भगिनी नमस्कारः.
नमस्कारः महोदय. वृक्ष नदीत जलम् आनीय वृक्षत फलम् आनीय केन्विडु आनीत्वा त्वा प्रत्यये.
हा, किमर्थम् आनीत्वा इति करणीयम् अस्ति, किमर्थम् आनीय इति अस्ति, कोऽपि वदति वा? उपसर्ग अस्ति भगिनि, तत्र गच्छति अस्ति चेत् गत्वा, किन्तु आगच्छति इति किं भवति रूपम्? आगत्य इति एव. अतः तत्र त्वान्त कुत्र भवति? यत्र धातो मध्ये उपसर्ग नास्ति चेत् त्वान्तरूपं, गच्छति गत्वा. उपसर्ग अस्ति चेत् ल्यबन्तरूपम् आगत्य. अत्र नीत्वा इति अस्ति, किन्तु आनयति इति आनीय इति भवति. समीचीनं वा भगिनि?
धन्यवादः.
तत्र उपसर्ग अस्ति इति कृत्वा.
धन्यवादः.
हा अस्तु, अग्रे भानचित्रि महोदय द्वितीयपरिच्छेदः पठित्वा वदति वा महोदय?
कुत्र अस्ति?
नरेश महोदय, एतत् करपत्रम् अस्ति महोदय, ईमेल् द्वारा प्रेषितवान, पञ्चमी विभक्ति इति,
द्वितीयभागः आश्रमपरिसरे.
आश्रमः इति प्रथमपुटे एव कथा अस्ति, तत्र द्वितीयपरिच्छेदः.
आश्रमपरिसरे हरिणाः धेनवः इत्यादयः निवसन्ति.
परिसरे इत्युक्ते
समीपे,
पार्श्वे.
महोदय,
किन्तु परिसरे इति
तत्र
केवलम् उभयतः इति, उभयतः उभयतः न, परितः,
परितः
केवलम् उभयतः इत्युक्ते वामतः दक्षिणतः, परितः इति तादृश. वदतु महोदय.
तत्र किं वदनीयं महोदय तद्वाक्ये?
तत्र किमपि नास्ति इति मन्ये महोदय. हिंस्रपशवः सत्यं महोदय, हिंस्रपशवः.
अच्छा, हिंस्रपशवः अपि निवसन्ति.
हा, तत्र पशुः अस्ति
महोदय, पशुः पशवः बहुवचनं. हिंस्र किं महोदय? हिंसा इति अहं जानामि,
क्रूर
विशेषं,
क्रूर, क्रूरं, क्रूरपशवः.
व्याघ्र
प्रातिपदिकं किं महोदय?
क्रूर, क्रूर, क्रूर,
क्रूर इत्युक्ते
क्रूयल्, क्रूयल् पदं तु तदेव,
क्रूयल्, क्रूयल् इति
डेञ्जरस्,
डेञ्जरस्, क्रूयल्.
व्याघ्र,
व्याघ्र इव, व्याघ्र, व्याघ्र एकः अस्ति,
व्याघ्र इव
अस्ति, व्याघ्र इव, क्रूरः पशवः,
व्याघ्र,
हिंस्रपशवः.
क्रूयल् हेस् कम् फ्रम् क्रूर. महोदय, हिंस्र इति तत् प्रातिपदिकं किं महोदय?
हिंस्रः, हिंस्रः इति प्रातिपदिकं न जानामि महोदय, किन्तु तत्तु तत्तु विशेषणम् अत्र अस्ति, द्रष्टव्यमस्ति महोदय.
महोदय,
प्रायशः अकारान्तपदमेव अस्ति इति मन्ये, हिंस्र इति
पुल्लिङ्गप्रथमवचन हिंसः
हिंस्रः हिंस्रः
पुल्लिङ्गप्रथमलिङ्ग
प्रथम एकवचन हिंस्र रामः हिंस्रः तादृश अकारान्त पुल्लिङ्ग
अहो महोदय हिंस्रः प्रथमवारं महोदय अतः
सत्यं सत्यं
तत्रापि
हिंस्रा इति प्रायश हिंस्रा
हिंस्रा हिंस्रम्
महोदय अग्रिम महोदय परस्परं द्वेषः नास्ति आश्रमस्य परिसरे पशवः मध्ये द्वेषः नास्ति
सर्वे हिंसपशवः अपि निवसन्ति किन्तु तयोः मध्ये परस्परं द्वेषः नास्ति कुत्र आश्रमस्य परिसरे केवलं
आश्रमस्य परिसरे अतः न बिडालात् बिभेति मूषकः न शुनकात् बिभेति बिडालः न जनेभ्यः बिभ्यति वानराः न क्रूरमृगेभ्यः भीताः भवन्ति हरिणादयः
सर्वे अवगच्छन्ति वा एतद् वाक्यं
किन्तु महोदय तत्र तत्र व्याघ्रः किमपि न खादति आश्रमसमीपे क्रूर पशवः कथं खादति कथं
खादन्ति
कथं जीवन्ति
किं खादन्ति
किं खादन्ति
प्रष्टव्यमस्ति भगिनि
न लिखितं तत्र
दूरं दूरं गत्वा हिरण मारयति
केवलं भोजनकाले दूरं गत्वा भोजनं कृत्वा न तादृश नास्ति किन्तु न तादृश नास्ति केवलं
परिसरे ते प्राणायामं कुर्वन्ति महोदय
सत्यं 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 तत्तु तत्र अस्तु विनोद अस्ति अङ्गीकरोमि किन्तु आश्रमस्य प्रभावः अपि अस्ति खलु सर्वे गच्छन्ति तत्र परिवर्तनं तु भवति अतः विनोदः तु कुर्मः किन्तु अस्तु तत्र बिडालात् बिभेति मूषकः तत्र मूषकः इति अस्ति चेत् किं भवति महोदय तत्र तत्र बिडालात् बिभेति मूषकः इति तस्य तस्य बहुवचनरूपं वदति वा
पुनरेकवारं पृच्छतु महोदय
बिडालात्
बिडालात् बिभेति मूषकः
तस्य बहुवचनरूपं सर्वत्र बहुवचनरूपं
बिडालात् बिडालाभ्यां बिडाल बिडालेभ्यः बिडाले बिडालेभ्यः बिभेति
तत्र वाक्ये एव दत्तमस्ति वाक्ये एव दत्तमस्ति जनेभ्यः इति दृष्ट्वा वदतु तत्र
बिभ्यति महोदय
अतः बिडालेभ्यः
बिडालेभ्यः बिभ्यति
बिडालेभ्यः बिभ्यति मूषकाः अपि अग्रे
न शुनकेभ्यः
बिडालाः समीचीनं महोदय
बिभ्यति बिडालाः जनेभ्यः जनात् बिभ्यति
वानरः समीचीनं महोदय समीचीनं हा अस्तु
बिभेति एकवचनं क्रियापदं बिभितः द्विवचनं
द्विवचनं किम् अस्ति तत्र ददाति दत्तः रूपं तादृशे एव अत्रापि अस्ति
जुहोत्यादि
तत्र द्रष्टव्यमस्ति किन्तु दत्तः इति तादृशे एव भवति इति मन्ये अष्टाध्यायी मध्ये द्रष्टव्यमस्ति भगिनि न स्मरामि अन्य कोऽपि दृष्ट्वा वदन्तु अस्तु समीचीनं हा हरिणादयः भवन्ति हरिण बीताः बीताः भवन्ति हरिणादयः बीताः इति पदं किम् अस्ति महोदय तत्र बनचितनि
महोदय
के बीताः
भीताः इति विशेषणं महोदय
कस्य पदस्य
हरिणादयः
हा हरिणादयः न भवन्ति
बीताः
न भवन्ति समीचीनं महोदय समीचीनं हा अस्तु अग्रे तत्र हा गीताञ्जलि भगिनी अग्रे पठति वा पठित्वा वदति वा
आं महोदय ग्रामीणाः प्रतिदिनम् आश्रमम् आगच्छन्ति ग्रामस्य जनाः प्रतिदिनम् आश्रमम् आगच्छन्ति
आश्रममिति
कर्मपदम्
कर्मपदम् समीचीनम् अग्रे
ते मुनिवरात् उपदेशं शृण्वन्ति
मुनिवरात्
पञ्चमी
पञ्चमी
उपदेशं कर्मपदं शृण्वन्ति बहुवचनं
तत्र ते इत्युक्ते
ते ग्रामीणाः
जनाः
ग्रामस्य जनाः
जने उपदेशं शृण्वन्ति समीचीनं
धर्मात् विना मुक्तिः सुखं वा नास्ति इति मुनिवरः उपदिशति धर्मात् पञ्चमी विना मुक्तिः सुखं वा नास्ति
इत्युक्ते
धर्मात् विना मुक्तिः न अभवत् न
धर्मात् विना मुक्तिः
नास्ति
धर्मात् विना मुक्तिं न प्राप्तुं
शक्नुमः न प्राप्तुं शक्नुमः सुखं
सुखमपि तादृशमेव सुखं वा मुक्तिः वा मुक्तिः वा वयं धर्मात् विना न प्राप्तुं शक्नुमः तत्र धर्मात् विना इति अस्ति चेत् अन्या विभक्ति अपि तत्र स्थापयितुं शक्नुमः वा
आं महोदय द्वितीय धर्मं विना
अथवा तद् समीचीनम् अपि तृतीयापि धर्मेण विना जलेन विना जीवनं
जलेन विना अस्तु
तादृश अस्तु समीचीनं भगिनि मुनिवरः उपदिशति
सः जनान् पापेभ्यः रक्षति पापेभ्यः पञ्चमी बहुवचन जनान् पापेभ्यः रक्षति इत्युक्ते सः इत्युक्ते मुनिवरः
मुनिवरः कान् रक्षति
जनान् कर्मपदं जनान् बहुवचन कर्मपदम्
अतः रक्षति अस्ति चेत् प्रश्नद्वयं वयं कर्तुं शक्नुमः कं रक्षति अपि कस्मात् रक्षति कस्मात् रक्षति
कस्मात् रक्षति
पापेभ्यः
रक्षति कान् रक्षति जनान् रक्षति कः रक्षति सः रक्षति
सः मुनिवरः रक्षति समीचीनं
सः मुनिवरः मुनिवरः
समीचीनं भगिनि अस्तु अग्रे
अहिंसा परमो धर्मः अतः हिंसातः विरमन्तु इत्यपि उपदिशति सः अहिंसा परमः धर्मः परमः धर्मः विशेषेण विशेष्य अत्र सन्धिरूपे परमो
परमो
अहिंसा इत्युक्ते उपसर्ग अहिंसा इत्युक्ते हिंसा न हिंसा न मास्तु
हिंसा मास्तु इति समीचीनं तदेव परमो धर्मः अतः
अतः इत्युक्ते अथवा
न न अथवा इति न अतः इत्युक्ते
अस्तु हिंसातः विरमन्तु पञ्चमी अपि पञ्चमी
पञ्चमी अर्थे तः इति अस्ति विरमन्तु नदीतः इति दृष्टवन्तः खलु तादृशेव हिंसातः
विरमन्तु इत्युक्ते
विरमन्तु
लोट् लकार
विरमन्तु तत्र विरामं कुर्वन्तु इत्युक्ते हिंसा कुर्वन्ति किन्तु इदानीं पर्याप्तं हिंसा इदानीं पुनः मास्तु न तस्य अलं तेन अलं हिंसेन अलं हिंसया अलम् इति
इति अपि उपदिशति मुनिवरः
मुनिवरः समीचीनं
ग्रामीणाः महिलाः नदीतः जलं नेतुम् आश्रमसमीपम् आगच्छन्ति ग्रामस्य महिलाः
तत्र ग्रामीणाः महिलाः इति
विशेषण विशेष्य महोदय ग्रामीणाः महिलाः नदीतः
ग्रामीणाः इति अस्ति तस्य परिच्छेदस्य प्रथमपदमेव ग्रामीणाः इति आसीत् खलु
आम् आं महोदय
तत्र एकवचनरूपं किम् अस्ति
ग्रामीणः
अस्तु समीचीनम् इदानीं ग्रामीणाः महिलाः इति अस्ति बहुवचने एकवचने रूपं किं
ग्रामीणः महिला
न न ग्रामीणा महिला
अस्तु महोदय क्षम्यतां ग्रामीणा महिला
समीचीनं भगिनि
नदीतः अपि च पञ्चमी
पञ्चम्यर्थे
रूपं पञ्चमी अर्थे
नदीतः अथवा नद्याः
नद्याः जलं नेतुं जलं कर्मपदं नेतुम् इत्युक्ते आनेतुं
नयति
नयति
नयति क्रियापदस्य तुमुन् रूपं
तुमुन् रूपं तुमुन् रूपं
नेतुं
नेतुम् आश्रमसमीपम् आगच्छन्ति नदीतः नदी आश्रमं समीपे अस्ति आगच्छन्ति ताः शिष्यान् पुत्रवत् पश्यन्ति ताः इत्युक्ते महिलाः शिष्यान् बहुवचनकर्मपदं पुत्रवत् इत्युक्ते पुत्र इव
पुत्रमिव
पुत्रं पुत्रम् इव पश्यन्ति गृहात् फलानि क्षीरं च आनीय समर्पयन्ति गृहात् पञ्चमी महिलाः गृहेभ्यः महिलायाः गृहात्
महिलायाः महिलाः गृहात्
महिलाः गृहात् फलानि च फलानि क्षीरं च आनीय लवन्त महोदय समर्पयन्ति
बहुवचनं कस्मै समर्पयन्ति
शिष्यान् समर्पयन्ति
न न शिष्यान् न शिष्यान् इति कर्मपदं भवति
मुनि
न न न मुनि अपि न कस्मै 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 इति अस्ति चतुर्थी विभक्तिरूपम् अहं पुस्तकं ददामि तत्र भवतीं पुस्तकं ददामि इति नास्ति खलु
समर्पयन्ति समर्पयामि समर्पणमपि
तादृशरूपमेव दत्तम् इति अर्थे एव अस्ति इति मन्ये
केवल चतुर्थविभक्ति उपयुज्य
नो चेत् तत्र क्लेशः भवति खलु खलु अहं क्षीरं रामं क्षीरं समर्पयामि इत्युक्ते किं भवति तत्र अहं क्षीरं शिवाय क्षीरं समर्पयामि इति किमपि भवतु भवेत् खलु भगिनि समर्पयामि ददाति ददामि इति तादृश एव अत्र अपि अत्र शिष्यः अस्ति राम रामाय रामाभ्यां रामेभ्यः रामात् रामाभ्यां रामेभ्यः पञ्चमी चतुर्थी तत्र बहुवचने समानं रामेभ्यः एव तत्र शिष्येभ्यः क्षीरं महिलाः गृहात् फलानि क्षीरं च आनीय
शिष्येभ्यः समर्पयन्ति
इति वक्तुं शक्नुमः अस्तु अस्तु भगिनि समीचीनम् अस्तु अस्तु समीचीनम् अस्ति नरेश महोदय कथम् अवगतवान् वा शीतल भगिनी समीचीनं वा प्रश्नः अस्ति वा अस्तु अस्तु अत्र तत्रैव किञ्चित् अभ्यासं कुर्मः अत्र तत्र अग्रिमपुटे किमस्ति शुभाषितमस्ति तदपि किञ्चित् पश्यामः अस्तु अग्रिमपुटे नरेश महोदय पठति वा तत्र अग्रिमपुटे
सुभाषितानि
प्रथमम्
अन्नात् भवन्ति भूतानि पर्जन्यात् अत्र सम्भवः यज्ञात् भवति पर्जन्यः यज्ञः कर्म समुद्भवः अन्नात् भवन्ति भूतानि पर्जन्यात् अत्र सम्भवः भवन्ति भूतानि
बाणचित्रि महोदय वक्तुम् इच्छति वा अत्र
किं महोदय
प्रथम सुभाषितम्
महोदय तस्मिन् करपत्रे एव महोदय
अग्रिमपुटे अस्ति किञ्चित् वदति वा महोदय तत्र
महोदय सृष्टिचक्रं यदस्ति तद् यज्ञकर्मात् प्रभवति तत्र वयं पश्यामः यत् भूतानि सर्वे जीवाः ये सन्ति ते सर्वे अन्नं खादित्वा एव
जीवनं कुर्वन्ति
तदनन्तरं महोदय तद् अन्नं यदस्ति तत्तु पर्जन्यः वृष्टिः तत् प्राप्नुमः वयं
पर्जन्यः
वृष्टिः इत्युक्ते पर्जन्यं यदस्ति तद् यज्ञात् भवति महोदय यज्ञात् इत्युक्ते केवलम् अग्निहोत्रमिति न किन्तु सूर्यभगवान् आदित्यः यदस्ति लॉ ऑफ इवापोरेशन कंडेंसेशन इति ते सर्वे यद् अस्ति तद् यज्ञकर्म एव सः करोति, सः यज्ञकर्म कर्म करोति, अतः एतत् सर्वं भवति। महोदय तदनन्तरं महोदय एतत् सर्वे यज्ञकर्मे कर्म समुद्भवः इति लिखितं महोदय।
अस्तु महोदय,
यज्ञं भवति ते सर्वे प्रकृत्या।
अस्तु अस्तु समीचीनम्। अस्तु अस्तु अत्र प्रायशः अग्रिमम् अपि तत्र केवलम् अद्य अभ्यासः कुर्मः किञ्चित् अत्र, तदनन्तरं गीतासोपनं गच्छामः। तत्र अग्रे किम् अस्ति तत्र उदाहरणरूपेण प्रथम अभ्यासः तत्र यदस्ति तत् कुर्मः। तत्र शीतल भगिनी अभ्यासं पठति वा?
आम् महोदय। किम्
अभ्यासः इति अस्ति खलु?
उदाहरणानुसारं रूपनिर्देशं कुर्वन्तु। पर्वतात् पर्वतेभ्यः
पर्वतात् अस्ति चेत् किं किं पर्वतात् अस्ति चेत् तत् पञ्चमी विभक्ति एकवचनं पुल्लिङ्ग अकारान्त इति। इदानीं पर्वतेभ्यः अस्ति चेत् किं किं भवति तत्र?
पर्वतेभ्यः बहुवचनं
बहुवचनम् अपि
पर्वताभ्यां
न पर्वतेभ्यः तत्र तत्र विषय तत्र पर्वतात् अस्ति चेत् किं किं दत्तमस्ति? चत्वारः विषयाः दत्तमस्ति खलु भगिनि? पञ्चमी, एकवचनं, किं किम् अस्ति?
पर्वतेभ्यः पञ्चमी बहुवचन अकारान्त पुल्लिङ्ग
पुल्लिङ्ग इति। समीचीनं भगिनि। अस्तु नरेश महोदय अग्रे।
नगरात् नगरात् पञ्चमी एकवचनं अकारान्त पुल्लिङ्ग।
नगरः अथवा नगरं वा?
नगर नपुंसकलिङ्ग
नपुंसकलिङ्ग इति चिन्त्यं महोदय खलु?
नगरम्
इति चिन्त्यामि महोदय। अस्तु समीचीनं समीचीनं महोदय। अस्तु अग्रे सूर्यकुमारी भगिनी अग्रे।
तस्मात्
न तृतीयः
नगर
तृतीयः
तृतीयः
पर्वतेभ्यः कृतं नगरात् कृतम् इदानीं नगर्याः
नगर्याः नगर्याः नगरौ
नगर्याः इति अस्ति चेत्
नगर्याः
रूपं लिङ्गं किम्?
नगरी
स्त्रीलिङ्गरूपं रूपं किं किं भवति तत्र?
नगर्याः
तत्र यत् उदाहरणं पश्यतु भगिनि, उदाहरणं दृष्ट्वा तत् तादृश एव वक्तव्यं। पर्वतात् इति किं किम् आसीत्? पञ्चमी, एकवचनम्, इदानीं नगर्याः किम् अस्ति?
स्त्रीलिङ्ग एकवचनं पञ्चमी विभक्ति इकारान्तः
दीर्घ इकारान्तः नगरी
इकारान्तः स्त्रीलिङ्ग पञ्चमी एकवचनं।
समीचीनं भगिनि, स्त्रीलिङ्गपदं समीचीनं भगिनि। अस्तु गीताञ्जलि भगिनि अग्रे।
पेटिकायाः अत्र पञ्चमी एकवचनं स्त्रीलिङ्गः पेटिका आकारान्तः
समीचीनं भगिनि समीचीनम्। अस्तु नरेश महोदय अग्रे।
पञ्चमी एकवचनं सः तत्
समीचीनं महोदय, सः इति एकवचने सः इति प्रथमाविभक्तिरूपम् अस्ति, किन्तु कीदृशपदम् इत्युक्ते प्रातिपदिकं तद् इति अस्तु, समीचीनं। भानुचैतन्य महोदय इदानीं षष्टम बिन्दुः तत्र
सर्वनाम पुल्लिङ्ग बहुवचनं
किन्तु अत्र पञ्चमी एव खलु, समीचीनम् अस्तु। तत्र एतद् तस्मात् इति वयं तत्र यत् गीतासोपने कृतवन्तः पेज् 125 मध्ये तदेव अत्र तत्र एतत् शब्दः पुल्लिङ्गरूपम् एतत् शब्दः स्त्रीलिङ्गरूपं तदेव अत्र खलु तेभ्यः। इदानीम् अत्र सूर्यकुमारी भगिनी अग्रे तस्याः इति
तस्याः स्त्रीलिङ्ग एकवचन पञ्चमी विभक्ति
सा इति न एतद् एतत् शब्दः एतद् न तद् तद् तस्याः अस्ति खलु तद् तद् शब्द स्त्रीलिङ्गरूपं
तत् तद् स्त्रीलिङ्ग
समीचीनम् अस्तु। अग्रे गीताञ्जलि भगिनि अग्रिमं
ताभ्यः पञ्चमी बहुवचनं स्त्रीलिङ्गः तद्
शब्दस्य
दकारान्त स्त्रीलिङ्गः
स्त्रीलिङ्गं समीचीनं भगिनि अस्तु समीचीनम् अस्तु। नरेश महोदय अग्रिम अभ्यासः करोति वा सम्यक् नास्ति वा महोदय अस्तु 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 महोदय अस्तु अतः त्यजामः तत्र अस्तु तत्र किमपि आसीत् किन्तु अस्तु खलु
कम्पेन प्रिण्ट् मध्ये
अस्तु अस्तु भगिनि हा 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 तत्र अस्तु अस्तु अतः गीतासोपानमेव गच्छामः तत्र किम् अस्ति तत्र वयं गतवर्गे किं कृतवन्तः प्रायशः तत्र पेज्
125
121 तत्र स्मः वा
न महोदय अधः तु सम्यक् एव महोदय तत् कर्तुं शक्यं
किं सर्व भवत् इति सम्यक् अग्रे पुटे
अग्रिमपुटे सम्यक्
सम्यक् सर्वे
केवलं सर्वं समीचीनं वा केवलं तत्र तत् पुटमेव समीचीनं
आं महोदय
अस्तु अग्रिमपुटे तत्र
किं किम्
अस्तु अस्तु तत्र अस्तु अस्तु तत्र
षड् अशीतिः
न न न एकनिमिषं भगिनि तत्र अस्तु तत्र षड् अशीतिः समीचीनं वा तत्र अस्तु किम् इति अस्ति अस्तु सर्व अस्तु 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 पञ्चम्यां शब्दरूपाणि लिखन्तु इति अस्तु अस्तु किम् इति पदस्य किम् अस्ति पञ्चमी भक्तिरूपं तत्र नरेश महोदय वदति वा किम् इति पुल्लिङ्गे
कस्मात् ताभ्यां केभ्यः
समीचीनम् अस्तु नपुंसकलिङ्गे शीतल भगिनी
सुलभमेव.
शीतल भगिनी तत्र करपत्रे पेज् 86
करपत्रे एव
किम् इति पदस्य पञ्चमीविभक्ति नपुंसकलिङ्गे. अस्तु अस्तु गीताञ्जलि भगिनी इदानीं स्त्रीलिङ्गे
स्त्रीलिङ्गे कस्मात् एव
न न
कस्याः अस्तु अस्तु धन्यवादः भगिनि. कस्याः काभ्यां काभ्यः.
समीचीनं भगिनि. समीचीनम् अस्तु अस्तु. इदानीं तत्र सूर्यकुमारी भगिनी सर्व पदस्य पुल्लिङ्गरूपं
सर्वः सर्वौ
गीतासोपाने पश्यतु तत्र कृतवन्तः खलु
सर्वस्मात्
तत्र सर्व तत् समीचीनमस्ति वा एकनिमिष अन्यत् न प्रायशः तत् समीचीनमेव इति मन्ये भगिनि. इति तादृशरूपम् अस्ति सर्वः सर्वस्मात् एव सर्वस्मात् सर्वाभ्यां सर्वेभ्यः इति
किञ्चित् विशेष महोदय.
सत्यं भगिनि सत्यं. अस्तु अग्रे भानचित्रि महोदय सर्वपदस्य स्त्रीलिङ्गरूपं पञ्चमीभक्ति
सर्वस्याः एकवचनं सर्वाभ्यां द्विवचनं
बहुवचनं महोदय. अस्तु इदानीं तत्र नरेश महोदय भवत् शब्दस्य पुल्लिङ्गरूपं
पुल्लिङ्गरूपं भवान्
पञ्चमीभक्ति कृतवन्तः वा
भवतः
भवद्भ्यः. समीचीनं तत्र कृतवन्तः खलु भवत् इति कुत्र कृतवन्तः तत्र दत्तमस्ति वा
भवतात्
प्रायशः सत्यं सत्यं किन्तु किन्तु अत्र न दत्तमस्ति. अस्तु महोदय समीचीनं किन्तु समीचीनमेव. अस्तु तत्र अग्रे सूर्यकुमारी भगिनी तत्र भवत् शब्दस्य स्त्रीलिङ्गरूपं पञ्चमीभक्ति
भवत्याः भवताभ्यां
न न भवती इति भवत्याः
भवत्याः भवतीभ्यां भवतीभ्यः.
समीचीनं भवतीभ्याम् इति अस्ति समीचीनं भगिनि. अस्तु अस्तु अस्तु. इदानीं तत्र तत्र अस्तु सर्वम् अन्यत् किम् अस्ति तद् कर्तुं भवन्तः एव कर्तुं शक्नुवन्ति इति तत्र अस्तु तत्र अभ्यासं रूपेण कुर्वन्तु तत्. इदानीं तत्र गीतासोपानमेव पुनः गच्छामः. अस्तु तत्र पेज् 125 इति तत्र सर्वं न कृतवन्तः इति मन्ये समीचीनं सत्यं वा पेज् 124 मध्ये गतवर्गे वयम् अर्जुन विषादयोगः तत्सर्वं कृतवन्तः खलु, अपि तस्मात् अभ्याम् एतस्मात् कस्मात् एतत् कृतवन्तः, किन्तु सुभाषितं न कृतवन्तः अपि. तत् कृत्वा अद्य अस्तु, तत्र कः पठति, शीतल भगिनी पठति वा तत्र, तत्र श्लोकं यत् अस्ति पेज् 125 मध्ये.
आम् महोदय,
गीतासोपान
एतान् श्लोकान् उच्चैः पठतः. विद्या ददाति विनयं, विनया ददाति पात्रतां, पात्रत्वात् पात्रत्वात् धनम् आप्नोति, धनात् धर्मं तत् सुखम्. विद्या नराय विनयगुणं ददाति, तेन सह नरः अर्हता प्राप्नोति, ततः धनं प्राप्नोति, धनेन धर्मकर्म कार्याणि कृत्वा सः पुण्यं प्राप्नोति.
समीचीनं भगिनि. तत्र श्लोके कुत्र कुत्र पञ्चमीभक्तिरूपम् अस्ति इति किञ्चित् वदति वा? पात्रत्वात् समीचीनं, पात्रत्वात् अपि अन्यत् केवलम् एकमेव अस्ति इति.
धनाद्धर्मम्
अपि अन्यत् तस्मिन् अस्तु. पङ्क्तौ पूर्वपङ्क्तौ
विनयात्
तत्रापि पश्यतु, तत्र अग्रे तत्र कृष्णवर्णे यद् दत्तमस्ति, विद्या नराय ददाति. नराय किं ददाति? विनयगुणं ददाति. चतुर्थी विभक्ति नराय इति, तदपि अत्र अस्ति. तेन विनयगुणेन सः नरः अर्हतां प्राप्नोति, ततः सः धनं प्राप्नोति, धनेन धर्मकार्याणि सः करोति, धर्मकार्याणि कृत्वा सः पुण्यं
प्राप्नोति.
समीचीनं, प्रसिद्धश्लोकः, सर्वे जानन्ति इति मन्ये. अस्तु, किन्तु तत्र किं किम् अस्ति अंशः, किं किं कः अस्ति इति, तदपि समीचीनमेव. अस्तु अस्तु, नरेश महोदय अग्रे पठति वा तत्र.
अन्नादभयन्ति भूतानि पर्जन्याद् अन्नसम्भवः, यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः.
यद् भवान् पूर्वं पठितवान् तदेव अत्रापि दत्तमस्ति महोदय, अतः एव अहं भवान् पठतु इति. अग्रे तत्र
सर्वे अपि जीवाः अन्नस्य कारणेन एव जन्म प्राप्य जीवनं कर्तुं शक्नुवन्ति. अन्नं तु यस्य कारणेन भवति, यज्ञः दानं तस्य कार्याणि एव वृष्टेः उत्पादने कारणानि.
अस्तु, तत्र समीचीनम् अस्ति, सर्वे अवगच्छन्ति इति मन्ये. तत्र श्लोके कुत्र कुत्र पञ्चमीभक्तिरूपपदानि किं किम् अस्ति इति एकवारं वदति वा महोदय.
अन्नात् पर्जन्यात् यज्ञात्
तावदेव इति मन्ये. पर्जन्यः यज्ञः कर्मसमुद्भवः, तावदेव इति मन्ये. अस्तु, अग्रे गीताञ्जलि भगिनी अग्रिम तत्र आदिशङ्कराचार्यस्य श्लोकं पठति वा तत्र?
आम् महोदय, प्रयत्नं करोमि. भगवद्गीता किञ्चित् अधीता गङ्गाजललवकणिका लवकणिका पीता सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा.
अस्तु, भानुचेतनी महोदय किञ्चित् वदति वा अत्र?
महोदय, किं श्लोकं तत् महोदय?
आदिशङ्कराचार्यस्य
भगवद्गीता. आं महोदय,
भजगोविन्दं मध्ये आगच्छति इति.
आं महोदय, साधारणतया साधना यदस्ति महोदय, बहिरङ्गसाधना यदस्ति तद् करणीयं, तर्हि एव चित्तं यदस्ति तद् चित्तशुद्धिः भवति महोदय. भगवद्गीता किञ्चित् अधीता, गीता अध्ययनं कर्तव्यम् इति भगवान् भगवत्पाद आदिशङ्कराचार्य वदति महोदय. गङ्गाजलं यदस्ति श्रद्धा भवितुम् अर्हति इति सः वदति महोदय.
गङ्गाजल
कणिका अपि अस्ति
चेत् तत्र गङ्गाजल लव लव इति पीस् पीस् ड्राप् ड्राप् अत्र
श्रद्धायाः पातुं तत्र गीताञ्जलिमहोदय. विना श्रद्धा पातुम् अस्ति चेत् तर्हि हिमालय वाटर् बाटल् अस्ति.
कणिका इत्युक्ते महोदय
लघु
ड्राप्
लव लव अपि च ड्राप्
लवकणिका
स्माल् ड्राप् इति
तत्प्रयोगं संस्कृतप्रयोगं अस्ति
शैली
सकृदपि येन मुरारि समर्च. अहो एतत् संसारः अस्ति, अहं मुक्तः भवेत् इति. तर्हि किम् आश्रयं तु मुरारि एव,
रक्षणं करोति,
भग्नः करोति महोदय. क्रियते तस्य यमेन तत्र, ये सर्वे ये कुर्वन्ति भक्ति वा ज्ञानं वा श्रद्धा श्रद्धया सह ये कुर्वन्ति ते यमः यमधर्मराजः इत्युक्ते मरणं न प्राप्नुवन्ति.
तस्य यमेन न चर्चा भवति, यमेन न चर्चा तस्य. अस्तु, भगवद्गीता किञ्चित् अधीता, तत्र महोदय तत्र पञ्चमीविभक्तिरूपं कुत्रापि भवति वा तत्र? किञ्चित् अधीता गङ्गाजललवकणिका
भगवद्गीता
अपि येन
मां न दृश्यते महोदय.
हा, अतः तदेव अहं क्रियते तस्य यमेन न चर्चा तत्र तत्र पञ्चमविभक्तिरूपं नास्ति इति मन्ये. हा, गङ्गाजललवकणिका पिता. हा, तत्र प्रायशः अस्तु, किन्तु हा भगवद्गीताविषयः अस्ति, गङ्गाजल भवान् वद बनचतनी महोदय, अतः भवान् वदति प्रथमपङ्क्तिः अस्ति ज्ञानविषये, द्वितीय अस्ति श्रद्धाविषये, तृतीय अस्ति भक्तिविषये इति वा?
आं महोदय.
अस्तु अस्तु, समीचीनं.
कर्म न महोदय, द्वितीयं तु कर्म अस्ति किन्तु श्रद्धया
करणीयम् इति. अस्तु, सद्यः निष्ठकार्यं करणीयम् इति.
आं महोदय.
अस्तु महोदय. अस्तु. नित्यकार्यं नित्यकर्म करणीयम् अस्तु. क्रियते तस्य यमेन न चर्चा. अस्तु. हा किन्तु पञ्चमविभक्ति न दृश्यते इति मन्ये. हा अस्तु. हा अस्तु. अग्रिमपुटे हा अग्रिम अध्यायः तदपि पञ्चमी एव अस्ति. हा कर्तुं शक्नुमः तत्र. कः पठति तत्र? सूर्यकुमारी भगिनी पठति वा?
नगरदर्शनं खलु. एतां एतां विनोदकणिकां पठत.
कणिकाम् इति इदानीम् आसीत् खलु.
कश्चन ग्रामीणः नगरदर्शनार्थं महानगरं गतवान्. यदा बुभुक्षा जाता तदा सः एकं भोजनालयं गत्वा पृष्टवान्. अत्र भोजनस्य अल्पाहारस्य च समयः कः इति. तदा भोजनालय स्वामी उक्तवान् प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारः, मध्याह्ने द्वादशवादनतः त्रिवादनपर्यन्तं भोजनं, सायं पञ्चवादनतः रात्रे दशवादनपर्यन्तं रात्रौ दशवादनपर्यन्तं रात्रिभोजनम् इति. एतस्य श्रवणानन्तरं सः ग्रामीणः पृष्टवान्, महाशय यदि एतावान् कालः अल्पाहारार्थ अल्पाहारार्थं मध्याह्ने भोजनार्थं रात्रिभोजनार्थं च भवति, तर्हि मम नगरदर्शनं कदा भविष्यति इति.
सर्वे अवगच्छन्ति वा
महोदय? वयं रात्रिभोजनं समये
तत्र किं चिन्तयति ग्रामीणः? चिन्तयति तत्र किम् अल्पाहार अनन्तरं तत्र एकादशवादनपर्यन्तम् अल्पाहारः अस्ति, तदनन्तरं द्वादशवादनतः केवलम् अर्ध किञ्चिदेव समयः अस्ति नगरदर्शनार्थं, तदनन्तरं त्रिवादनतः पञ्चवादनपर्यन्तमेव समयः अस्ति नगरदर्शनं कर्तुम्, अतः समयः किमपि नास्ति इति. सम्पूर्णदिनं केवलम् अल्पाहारं भोजनम् अपि
एव करोति सः दिनपर्यन्तम्.
अस्तु. तदेव विनोदकणिका इति. अस्तु,
धन्यवादः महोदय.
महोदय, सप्तवादनतः पञ्चमविभक्तिः अव्ययं तु
किं तः इति वा
चिन्तयामि?
तः इति तः पर्यन्तम् इति तद् अव्ययमेव अस्ति भगिनि. तत्र तः इति सर्वत्र स्थापयितुं शक्नुमः तः इति. पञ्चमी विभक्ति अर्थे अस्ति तत्.
पञ्चमीविभक्ति एव
अर्थे पञ्चमीविभक्त्यर्थे अस्ति. अतः एव पूर्वमपि कथायां वयं नदीतः इति तत् पञ्चमीविभक्तिरूपं नास्ति. पञ्चमीविभक्तिरूपम् अस्ति नद्याः इति. किन्तु तस्मिन् स्थाने वयं नदीतः इति अपि वक्तुं शक्नुमः.
किं प्रत्ययः तः
तः इति एव तदेव प्रत्ययः तः इति
तः प्रत्ययः
तदेव अस्ति तः तः तत्र तः इति तस् इति किमपि अस्ति रूपं किन्तु तद् तः इति भवति तद् सर्वत्र स्थापयितुं शक्नुमः
प्रत्ययनाम
रूपमस्ति तः किन्तु तस् इति प्रायशः अस्ति
धन्यवादः
तत्र तत्तु सर्वत्र एकवचने वा बहुवचने वा स्त्रीलिङ्गे वा पुल्लिङ्गे वा नपुंसकलिङ्गे वा कुत्रापि वयं तः इति स्थापयितुं शक्नुमः पञ्चमी विभक्त्यर्थे अतः सुलभम् अस्ति पञ्चमीविभक्ति रूपं करणे अपेक्षितम् अस्ति चेत् तः इति स्थापयतु तत्र
तः पञ्चमीविभक्ति एव
अर्थे अर्थे तदेव नदीतः इति पञ्चमीविभक्ति अस्ति किन्तु पञ्चमीविभक्तिरूपं नास्ति नद्याः इति पञ्चमीविभक्तिरूपं वस्तुतरूपं नद्या नदीशब्दस्य पञ्चमीविभक्ति निजरूपम् अस्ति नद्याः
तुल्यरूपं
नदीतः अपि वक्तुं शक्नुमः
सुलभं
हा सुलभम् अस्ति सत्यं सत्यं हा अस्तु तत्र विनोदकणिका तदनन्तरं किमपि वयं न कर्तुं शक्नुमः इति कृत्वा अस्तु 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 अतः अग्रिमवर्गे अग्रिमसप्ताहे नरेश महोदय शीतल भगिनी यदि वयम् अत्र वर्गं सार्धसप्तवादनतः नववादनपर्यन्तं कर्तुं शक्नुमः वा नरेश महोदय समीचीनं वा
समीचीनम् अस्ति परन्तु
अन्यैः म्यूट् कुर्वन्तु
कृपया तदेव तदेव करोमि अत्र अस्तु हा अस्तु महोदय अतः नरेश महोदय अतः सार्धसप्तवादनतः नववादनपर्यन्तं समीचीनमेव अस्ति
समीचीनम् अस्ति परन्तु अहं भारतदेशं गमिष्यामि
तत्र समयस्य परिवर्तनं किञ्चित् भवति तत्र प्रातःकाले भवति प्रातःकाले अस्तु महोदय
प्रातःकाले षड्वादने
हा सत्यं सत्यं षड्वादनतः सार्धसप्तवादनपर्यन्तं भवति
सम्यक् अस्ति
हा तदेव प्रायशः मङ्गलवासरस्य अपि वर्गस्य भवति इति मन्ये किन्तु एकवारं सर्वान् पृष्ट्वा परिवर्तनं न वा इति पश्यामः अस्तु शीतल भगिनी
सार्धसप्तवादनवसति षड्वादने सार्धषड्वादने
भारतदेशे षड्वादने भवति भगिनि अद्य सार्धषड्वादने आसीत् किन्तु अग्रिमवर्गे षड्वादने एव भवति समीचीनं वा अस्तु अस्तु भगिनि अस्तु अस्तु अतः अग्रिमवर्गतः अग्रिमवर्गारभ्य वयं सार्धसप्तवादनतः नववादनपर्यन्तं कुर्मः अस्तु सर्वेषां नमस्कारः अग्रिमवर्गे मिलामः नमस्कारः धन्यवादः
धन्यवादः महोदय
नमस्कारः
धन्यवादः
नमस्कारः